सर्वेभ्यो नमस्कारः. वर्गम् आरम्भं कुर्मः. इदानीं गतवर्गे वयं विरुद्धार्थकशब्दाः इति गतवर्गस्य विषयः आसीत्. तदनन्तरम् अपेक्षया इति विषयः गतवर्गे आसीत्. अद्य यत्र तत्र इति विषयः भवति अद्यतनवर्गस्य. अपि तुमुन् इति प्रयोगः अपि अद्यतनविषयः भवति. तदेव अद्यतनविषयः. अस्तु, तत्र विरुद्धार्थकशब्दाः तत् तु पेज् 65 मध्ये अस्ति. तत् अभ्यासः वयम् अभ्यासं गतवर्गे वयं कृतवन्तः. उन्नतः, वामन इति तादृशविरुद्धार्थकशब्दः. तत्र गृहपाठः आसीत्. विरुद्धार्थकशब्दानाम् उपयोगं कृत्वा वाक्यानि रचयतु इति. कः वक्तुम् इच्छति? वेणुगोपाल् महोदय वदति वा?
प्रथमवाक्यः प्रथमवाक्यं स्थूलः बालकः दण्डेन सह कुशं बालकं ताडयति. द्वितीयः वाक्यः द्वितीयं वाक्यं सः पुरातनं पुस्तकं त्यक्त्वा नूतनं पुस्तकं क्रीतवान्. तृतीयं वाक्यं पवनपुत्र बहुत्कायं धृत्वा लङ्कां उल्लङ्घितवान् च लघुकायं धृत्वा लङ्काराक्षसीं मारितवान्.
तत्र लङ्काम् उल्लङ्घितवान् इत्युक्ते किं महोदय? तत्र
जम्प् इति.
किन्तु तत्र सः समुद्रं लङ्घितवान् खलु?
समुद्रं लङ्घितवान् लङ्घितवान् च लघुकायं धृत्वा लङ्काराक्षसीं मारितवान्. लङ्कायाः राक्षसीं मारितवान्.
समीचीनं महोदय.
चतुर्थं वाक्यं अधिकं मधुं न खादतु, किञ्चिदेव खादतु. अधिकं मधुकं न खादतु, किञ्चिदेव खादतु. पञ्चमवाक्यं अहं दीर्घकालम् अमेरिकादेशां निवसामि स्म. अधुना ह्रस्वकालं भारतदेशं तु निवसामि. अहं दीर्घकालम् अमेरिकादेशे निवसामि स्म. अधुना ह्रस्वकालं भारतदेशे तु निवसामि.
समीचीनं महोदय. अस्तु, धन्यवादः. अन्य अग्रे नरेश महोदय वदति वा?
अहं किञ्चित् जलम् इच्छामि, अधिकं मा ददातु. मम पुस्तकं पुरातन अस्ति, अहं नूतनम् इच्छामि.
पुरातनम् अस्ति,
पुरातनम्. सः किञ्चित् भोजनं करोति, ततः कृशः अस्ति, स्थूलः न. अन्यानां पर्वतानाम् अपेक्षया हिमालयपर्वतः उन्नतः अस्ति. गङ्गा नदी जनायाः नद्याः अपेक्षया बृहत् अस्ति. पञ्चवाक्यम्
अस्तु. धन्यवादः महोदय, समीचीनमस्ति. अग्रे कः वक्तुम् इच्छति? शोभा भगिनी वदति वा?
क्षम्यतां महोदय, अहं न कृतवती.
अस्तु 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 अस्तु. मेहुल् महोदय वदति वा?
आम् महोदय.
अस्तु,
प्रथमं वाक्यं, वटवृक्षः बृहत् अस्ति वामनन. द्वितीयं वाक्यं,
हिमालयः वामनः न. तत्र
द्वितीयं वाक्यं, हिमालयपर्वते एवरेस्ट् इति शिखरम् अति उन्नतः अस्ति वामनः न.
शिखरम् इति नपुंसकलिङ्गे अस्ति, अतः तत्र अति उन्नतम् इति भवति महोदय. विशेषं शिखरं चेत् उन्नतम्.
अस्तु, तृतीयवाक्यम्, अहं किञ्चित् संस्कृतं जानामि, अधिकं न. मम माता स्थूलः नास्ति अपि च कृशः नास्ति.
तत्र स्थूलः कृशः, तत्र किम् उक्तवन्तः तत्र? तत्र पश्यतु, विशेषसूचना इति अस्ति पेज् 66 मध्ये. तत्र स्थूल इति विशेषणं भवति.
आम्, बालकः स्थूलः.
किन्तु बालिका स्थूला इति.
मम माता स्थूला अपि पुरुषा नास्ति.
इदानीं समीचीनं महोदय.
धन्यवादः. बृहत् लघु, सागरः बृहत् अस्ति, लघुः नास्ति.
समीचीनं महोदय. पञ्चवाक्यवाक्यानि,
अन्तिमवाक्यं, वर्णमाले दीर्घः अपि च ह्रस्वः स्वराः सन्ति.
समीचीनं महोदय. दीर्घस्वराः, ह्रस्वस्वराः अपि च सन्ति. समीचीनं महोदय, धन्यवादः. अस्तु,
धन्यवादः.
अन्य अग्रे कः वक्तुम् इच्छति?
मीनाक्षीमन्दिरं बृहत् अस्ति, मम गृहे समीपे गणेशमन्दिरं लघु अस्ति.
मम गृहस्य समीपे,
गृहस्य समीपे, अस्तु, गृहस्य समीपे गणेशमन्दिरं लघु अस्ति. तत् साधुप्रयोगं वा? लघु
लघु लघु साधु एव अस्ति भगिनि.
मम पुत्री मधुरं किञ्चिदेव खादति, तु माषाभूपम् अधिकम् इच्छति.
अस्तु,
महाभारतपुस्तकं स्थूलम् अस्ति, पञ्चतन्त्रपुस्तकं कृशम् अस्ति. एवरेस्ट् पर्वतः उन्नतः अस्ति, परन्तु वेलङ्गिरिः वामतः अस्ति.
वामनः इति,
वामनः अस्ति, वामनः अस्ति. रामायणं पुरातनकाव्यम् अस्ति, हेरी पाटरः नूतनकाव्यम् अस्ति.
समीचीनं भगिनि. तत्र वामतः इति तदपि पदं समीचीनम् अस्ति, किन्तु अर्थः अन्यत् अस्ति. दक्षिणतः
वामतः
तादृश भवति
प्रयोगम्.
अस्तु, सत्यं.
धन्यवादः महोदय.
अस्तु, अन्यत् वाक्यम् अस्ति?
अहं,
अस्तु अस्तु, धन्यवादः भगिनि, धन्यवादः. वंशीसुधा भगिनी वक्तुम् इच्छति वा?
आम् महोदय, अहं सरलेन वाक्यं रचितवती. कूप्याम् अपेक्षया नद्याम् अधिकानि जलानि सन्ति.
कूप्यां तत्र अपेक्षया इति
षष्टि
इति भवति भगिनि, अतः
कूप्याः अपेक्षया नद्याम् अधिकानि जलानि सन्ति.
नद्याम्
अधिकानि
तत्र जलम् इति प्रायशः जलम् एकवचने एव भवति, अधिकं जलमेव अस्ति इति. तत्र अधिकानि इति नपुंसकलिङ्ग सत्यं भगिनि, किन्तु तत्र पश्यतु जलं बहु जलम् अधिकं जलम् इति वदामः, किन्तु तत्र यस्य तत्र संख्यायाः द्विविधाः अस्ति खलु, एकम् अस्ति एकं द्वे त्रीणि इति यत् वयं गणितुं शक्नुमः. एकपुरुषः अस्ति, पुरुषद्वयम् अस्ति, त्रयपुरुषाः सन्ति इति वक्तुं शक्नुमः, किन्तु जलविषये तादृशः वक्तुं न शक्नुमः खलु. तत्र केवलं किं वदामः, जलस्य कियत् जलम् अस्ति इति मापनं कर्तुं शक्नुमः, किन्तु कति जलम् इति प्रश्नः न भवति.
इदानीं किं लिखामि महोदय?
अत्र अधिकं जलम् अस्ति इति साधु एव अधिकं जलम् अस्ति.
कूप्याः अपेक्षया नद्याम् अधिकः जलं सन्ति,
अधिकं जलम् अस्ति.
अस्ति,
जलम् अस्ति.
अस्ति, पुरातनी परम्परा एव उत्तमः अस्ति.
पुरातनी परम्परा
एव उत्तमा अस्ति. अक् प्रत्याहारे ह्रस्वाः स्वराः सन्ति. पिता बालस्य अपेक्षया उन्नतः अस्ति. रामायणे कुम्भकर्णः स्थूलः अस्ति, भागवते सुदामः कृशः अस्ति. तावदेव महोदय.
अस्तु, धन्यवादः भगिनि, समीचीनम्.
एकः दीनः गृहं धनिकः गृहस्य अपेक्षया लघु अस्ति.
दीनस्य गृहं प्रायशः
दीनः गृहं धनिकस्य, अहं धनिकस्य गृहस्य अपेक्षया लिखितवती सन्ति. दीनः गृहं धनिकः गृहस्य.
दीनः गृहम् इत्युक्ते किम्?
दीनस्य गृहं
तत्र अपेक्षा इति विषयः नास्ति, केवलं दीनगृहम् इति न वक्तुं शक्नुमः. दीनस्य गृहं
धनिकस्य गृहं लिखितवान्.
धनिकस्य गृहस्य अपेक्षया
लघु अस्ति.
तत्र षष्टिविभक्ति बहुवारं तस्य तस्य प्रयोजनं बहुवारं भवति, किन्तु कारणं एकमेव नास्ति. तत्र अपेक्षा इति अस्ति, अतः धनिकस्य अनन्तरं यद् गृहं पदम् आगच्छति तत्र गृहस्य इति तस्य षष्टिविभक्ति भवति अपेक्षया इति कारणात्. किन्तु धनिकगृहम् इति न वक्तुं शक्नुमः, कस्य गृहम् इत्युक्ते धनिकस्य गृहम् इति. अस्तु, धन्यवादः. अस्तु, अन्य कोऽपि वक्तुम् इच्छति वा? करोतु भगिनि, निश्चयेन.
यद्यपि भगवद्गीता लघुग्रन्थम् अस्ति, किन्तु तत् महत् उपदेशः ददाति.
महत् उपदेशः प्रायशः महान् उपदेशः महान् उपदेशः
उपदेशः ददाति न
हा किन्तु ददाति इति अस्ति हा अतः कोऽपि वदति वा महान् महत् इति शब्दस्य कीदृशरूपम् अपेक्षितम् अस्ति तत्र ददाति इति अस्ति भगवद्गीता ददाति किं ददाति
उपदेश महान् उपदेश ददाति
हा तत्र उपदेशम् इति कर्मपदं भवति भगिनि तत्र उपदेशम् इति भवति
महतीय महोदय महतीय
महत उपदेशः इति अस्ति महोदय तत्र उपदेशः तस्य विशेषणम् अस्ति महत् इति हा तत्र भगवद्गीतायाः विशेषणं नास्ति उपदेशः इति अस्ति तस्य विशेषणम् अस्ति महत् इदानीं महत् उपदेशः इति तत्तु समीचीनम् अस्ति भगिनि तत्र किञ्चित् एव परिवर्तनम् आवश्यकं कर्मपदं भवति तत्र उपदेशः नास्ति उपदेशं ददाति
उपदेशं ददाति
हा इदानीं महत् इति प्रथमविभक्तिरूपम् अस्ति तस्य द्वितीयविभक्तिरूपं तत्र अपेक्षितम् अस्ति तत्र कः वदति महान् तत्र भवान् भवन्तो भवन्तः तदनन्तरं द्वितीयविभक्ति कोऽपि वदति वा भवन्तम् इदानीं महान्तं महान्तं हा महान्तम् उपदेशं ददाति इति भवति रूपं तत्र अन्यत्रापि वक्तुं शक्नुमः भगिनि तत्र तत्र प्रथमपदं किम् आसीत् यद्यपि इति आसीत् खलु भवतः भवत्याः वाक्ये हा तत् अन्तिमपुटं पश्यतु अभ्यासपुस्तके 74 इति तत्र यद्यपि तथापि इति तद् रूपं सर्वदा उपयोगं तादृशरूपः रूपं भवति यद्यपि भवती तु किन्तु उक्तवती तदपि समीचीनं किन्तु तथापि इति अस्ति रूपं तत्र तद् अग्रे गत्वा पश्यामः इदानीं मास्तु किन्तु केवलम् उक्तवान्
हनुमानः अधिकं कार्यं लघु समयेन श्रीरामाय कृतवान्
हनुमान् इति भवान् इति भवान् शब्दवत् अस्ति हनुमान् इति
हनुमान् अधिकं कार्यं लघु समये श्रीरामाय कृतवान्
श्रीरामाय कृतवान्
कृतवान्
हा समीचीनं भगिनि लघु समये श्रीरामाय कृतवान्
हनुमान् अन्यरूपाणि न सन्ति
हनुमान् इति भवान् शब्दवत् अस्ति भवान् भवन्तौ भवन्तः हनुमान् हनुमन्तौ हनुमन्तः इति हनुमन्तः हनुमन्तं हनुमतः इति षष्ठीविभक्तिरूपं सर्वम् अस्ति भगिनि
मम पुत्र्याः वस्त्रं नूतनं सन्ति
अस्ति
नूतनं वस्त्रं वस्त्राणि नूतनानि सन्ति किन्तु मम सर्वाणि वस्त्राणि पुरातनानि सन्ति
समीचीनं भगिनि समीचीनं अस्तु अस्तु भगिनि, नाम धन्यवादः, समीचीनमेव. अस्तु अस्तु, इदानीं किञ्चित् विरुद्धार्थकशब्दस्य अभ्यासं कृतवन्तः, रूपाणि दृष्टवन्तः. इदानीं किञ्चित् अग्रे गच्छामः. तत्र अभ्यासपुस्तके यत्र तत्र इति पेज् 66 मध्ये तत्र अस्तु. इदानीं पर्यन्तं कः न उक्तवान्? अस्तु, रघुपतिमहोदय, भवान् तत्र पठति वा यत्र तत्र इति?
हा महोदय. एतेषां पदानां सहाय्येन अन्यानि वाक्यानि लिखतु. यथा शर्करापिपीलिकाः, यत्र शर्कराः यत्र शर्करा तत्र पिपीलिकाः भवन्ति.
शर्करा अस्ति चेत् पिपीलिकाः
पिपीलिकाः
भवन्ति इति अर्थः.
इति अर्थः.
अस्तु, अग्रिमं करोति वा तत्र?
दीपः प्रकाशः, यत्र दीपः अस्ति तत्र प्रकाशः प्रकाशः भवति अथवा प्रकाशः भवति
भवति. तत्र यत्र तदनन्तरम् एकः भागः अस्ति, तत्र अनन्तरम् अन्यः भागः अस्ति, किन्तु प्रथमभागे तत्र क्रियापदं सर्वदा अत्र क्रियापदम् अस्ति इति एव भवति. प्रथमभागे क्रियापदम् आवश्यकं नास्ति, अतः तत्र यत्र शर्करा तत्र पिपीलिकाः भवन्ति. वयम् अवगच्छामः शर्करा अस्ति इति, किन्तु अस्ति पदं त्यजामः चेत् अपि अवगन्तुं शक्नुमः. इदानीं तादृशरूपं वदतु महोदय.
यत्र दीपः तत्र प्रकाशः
भवति
भवति.
द्वितीयभागे क्रियापदम् अपेक्षितं. समीचीनं महोदय. अस्तु, भानुचेतिनी महोदय वदति वा अग्रिमं?
महोदय, दीपः प्रकाशः वा?
तद् तद् रघुपति आचार्य महोदय कृतवान्. अग्रिमं
यत्र क्रीडाः सन्ति तत्र बालकाः भवन्ति.
तत्र यत्र यत्र अनन्तरं पदमस्ति तत्र उदाहरणवाक्यं पश्यतु. यत्र शर्करा तत्र पिपीलिकाः भवन्ति.
यत्र क्रीडा तत्र बालकाः सन्ति
अथवा भवन्ति अथवा सन्ति. समीचीनं महोदय. समीचीनम्. अस्तु, शोभा भगिनी अग्रिमं करोति वा?
आं महोदय. यत्र विदूषकः तत्र विनोदः
अस्ति.
अस्ति.
समीचीनं भगिनि. अस्तु, वेणुगोपाल महोदय अग्रिमम्.
आं महोदय. यत्र आपणः तत्र ग्राहकः अस्ति.
यत्र आपणः नकारः अस्ति तत्र आपणः इति.
यत्र आपणः तत्र ग्राहकः अस्ति.
यत्र आपणः तत्र ग्राहकः अस्ति. समीचीनं महोदय. अस्तु, तत्र यत्र तत्र इति रूपस्य अवगमनम् अस्ति इति मन्ये. तत्र तादृश अपि अग्रिम अभ्यासः अत्र तादृशः एव अस्ति. नरेश् महोदय अग्रिम अभ्यासः तद् किञ्चित् पठति वा?
द्वितीयं वाक्यं पठित्वा तत्सम्बन्धं प्रथमवाक्यं लिखतु.
अर्थः कः तत्र?
द्वितीयपाठक पठित्वा तत्सम्बन्ध प्रथमवाक्यं लिखतु.
तत्सम्बन्धम् इत्युक्ते किम्?
Related to that.
कोऽपि सम्बन्धः भवतु. प्रथमभागं किमपि अस्ति, अहं पाठशालां गतवान्, रामः गच्छति इति, कोऽपि सम्बन्धः नास्ति चेत् तत्र वाक्यद्वयं न भवति इति कृत्वा सम्बन्धः भवतु इति. अस्तु, प्रथम तत्र उदाहरणं पठतु महोदय.
यत्र भवान् गच्छति तत्र अहमपि आगच्छामि.
इदानीम् अग्रिमं
अग्रिमं भवान् अपि क्रीडतु. यत् यत्र सः क्रीडति तत्र भवान् अपि क्रीडतु.
पुनरेकवारं महोदय.
यत्र सः क्रीडति तत्र भवान् अपि क्रीडतु.
हा समीचीनं महोदय. हा समीचीनं, धन्यवादः. हा अस्तु, मेहुल् महोदय अग्रिमम्.
आम् महोदय, भवती मा गच्छति इति अस्ति अत्र प्रथमं. यत्र सा गच्छति तत्र भवती मा गच्छतु.
समीचीनं महोदय, धन्यवादः. वंशीसुध भगिनी अग्रिमम्.
आं महोदय, यत्र देवालयः भवति सर्वे यत्र देवालयः अस्ति सर्वे अपि गच्छन्ति.
तत्र तत्र इति
तत्र 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 सर्वे अपि गच्छन्ति. आं महोदय,
हा किन्तु तत्र अपि गच्छन्ति इति अस्ति
अपि.
हा भवतः भवतः भवत्याः वाक्यं साधु एव, किन्तु अत्र अपि इति पदमस्ति. यत्र देवालयः अस्ति तत्र सर्वे गच्छन्ति. हा इदानीं सर्वे अपि इति अस्ति.
किं वदामि महोदय, साधुवाक्यं किं महोदय?
तत्र भवती अवगच्छति खलु, तत्र देवालयः अस्ति तत्र सर्वे गच्छन्ति इति साधु अस्ति, किन्तु अपि गच्छन्ति इति.
यत्र भवान् गच्छति सर्वे अपि गच्छन्ति.
तत्र तत्र
तत्र यदा यत्र भवान् गच्छति तत्र सर्वे अपि गच्छन्ति.
हा समीचीनम् इदानीं. अस्तु, धन्यवादः भगिनी. अस्तु,
धन्यवादः.
गीताञ्जलि भगिनी अग्रिमं करोति वा?
यत्र
वसति अथवा अस्ति.
यत्र
सिंहः अस्ति
तत्र वासं न करोति.
समीचीनं भगिनि, समीचीनम्. अस्तु, धन्यवादः. अस्तु, हा अस्तु. अत्र पूर्वस्मिन् अभ्यासे किञ्चित् भेदः आसीत्, तत्र प्रथमभागे क्रियापदं नासीत्, इदानीं क्रियापदम् अस्ति. अपि अन्यत् अपि अस्ति द्वितीयभागे. किम् अस्ति? अपि मा इति पदस्य उपयोगः अपि अत्र भवति. तावदेव भेदः. अस्तु, प्रिया भगिनी, अग्रिम अभ्यासः तुमुन् इति विषयः, तत् किञ्चित् पठति वा तत्र?
आम् महोदय. आवरणे विद्यमानस्य क्रियापदस्य उचितं रूपम् उदाहरणवाक्ये इव लिखतु. रमेशः आवरणे क्रीडति. रमेशः क्रीडितुं क्रीडाङ्गणं गच्छति.
अत्र तुं क्रीडितुम् इत्युक्ते किम्? क्रीडति इत्युक्ते जानीमः रमेशः क्रीडति, किन्तु इदानीं सः क्रीडति वा?
क्रीडनं कर्तुम् इच्छति.
क्रीडा कर्तुं सः गच्छति, अतः क्रीडितुम् इति वदामः. सत्यं खलु? क्रीडितुं. सः किमर्थं क्रीडाङ्गणं गच्छति? सः क्रीडितुं क्रीडाङ्गणं गच्छति. अस्तु, प्रथमं
महोदय, तुमुन् शब्दाः किमर्थं स्यात् महोदय?
तस्य उत्तरमपि भवति प्रयोगः किमर्थं सः गच्छति, सः एतत् कर्तुं गच्छति इति तादृशः रूपः अपि अस्ति.
कोऽपि कार्यं कर्तुम् इच्छति चेत् तुमुन् प्रयोगः तत्र
तत्र तुमुन् अपि उत्तररूपेण भवितुम् अर्हति. तत्र सर्वदा तुमुन् एव भवति इति न, किन्तु तुमुन् अपि भवति.
महोदय
अस्तु. प्रिया भगिनी अग्रे प्रथमं तत्र.
उमेशः वस्तूनि आनयति. उमेशः वस्तूनि आनयितुम्
आनीतुम्
उमेशः वस्तूनि आनीतुम् आपणं गतवान्.
तत्र आनेतुम्
आनेतुम्
वा महोदय? आनेतुम् आनीतुम्
महोदय आनेतुम् इति इति मन्ये.
उमेशः वस्तूनि आनेतुम् आपणं गतवान्
इति आनेतुम् इति एव अहं चिन्तयामि. अत्र आनेतुं
गुणः भवत् नी दातु ओके गुणः
आनेतुम् इति अस्तु. अग्रे धन्यवादः भगिनी प्रिया भगिनी. अस्तु अग्रे शोभा भगिनी वदति वा तत्र अग्रिमम्.
आं महोदय, अहं लिखितुं लेखनीम् आनीतवती.
तत्र लिखति इति आवरणे अस्ति. तत्र अग्रिमपुटे अस्ति वा न? अग्रिमपुटे नास्ति. अस्तु एतत् कुर्मः तत्र शोभा भगिनी तत्र रूपः अत्र सर्वे न दत्तमस्ति. रूपः अस्ति लेखितुम् इति.
लेखितुम् आं महोदय, अहं लेखितुं लेखनीम् आनीतवती.
आनीतवती समीचीनं.
महोदय एकः प्रश्नः अस्ति पूर्वभागे. वासं मा करोतु. यत्र प्रदेशः निर्जनस्य अस्ति तत्र लिखितुम्
यत्र प्रदेशः निर्जनः अस्ति प्रदेशः इति शब्दः तस्य विशेषणं निर्जनः इति.
यत्र प्रदेशः निर्जनः अस्ति तत्र वासं मा करोतु. धन्यवादः महोदय.
अस्तु अस्तु अग्रे मेहुल् महोदय करोति वा.
महोदय एकः प्रश्नः, लिखति इति लेखितुं पदं
लेखितुम् इति भवति. लेखितुम् इति रूपम् अस्ति. किञ्चित् प्रतीक्षां करोतु भगिनि. किञ्चित् एव प्रतीक्षां करोतु. अस्तु निमिषत्रयं अस्तु. मेहुल् महोदय अग्रिमं करोति वा.
चतुर्थं वा?
आम्
अस्तु. जनाः नाटकम् अत्र आवरणे पश्यति इच्छन्ति इति अस्ति. जनाः नाटकं द्रष्टुम् इच्छन्ति
द्रष्टुम् इति समीचीनम् अस्ति. अस्तु धन्यवादः महोदय. अग्रे किमस्ति? करोति इति अस्ति. तत्र कः? रघुपति आचार्य महोदय करोति वा तत्र?
सः अस्वस्थः अतः कार्यं कर्तुं न शक्नोति.
कर्तुं न शक्नोति समीचीनं महोदय. भानुचेतनी महोदय अग्रिमम्.
सङ्गीतम् आवरणे शृणोति. भवान् कुत्र गच्छति? सङ्गीतं श्रोतुं भवान् कुत्र गच्छति?
तत्र श्रोतुम् इति रूपम् अस्ति. समीचीनं महोदय. अस्तु पिबति इति अस्तु. गीताञ्जलि भगिनी अग्रिमं करोति वा. गीताञ्जलि भगिनी अस्ति वा?
श्रोतुं
अग्रिमम् अग्रिमं जलम् इति
अस्तु महोदय प्रश्न श्रोतुं श्रोतुं स्पेलिङ्ग् ऋकार रेफ
रेपः
रेप
शृणोति एकनिमिषः अस्तु तदपि श्रोतुम् इति तदपि वयम् अग्रे अग्रे किञ्चित् अग्रे पश्यामः भगिनि तदपि श्रोतुम् इति कीदृशरूपम् अस्ति इति पश्यामः तत्र प्रायशः ऋकारः एव अस्ति इति मन्ये
श्रवण
इति प्रिया भगिनी किम् उक्तवती
रेफः आगच्छति तत्र खलु ऋकारः
रेफः वा अस्तु सप्तमवाक्यं सप्तमवाक्यं भगिनि
जलम् इवति चषकः आवश्यकः जलं
तत्र रूपं कोष्टके अस्ति
पिबति
कोष्टके अत्र अधोभागे कोष्टकम् अस्ति तत्र पिबति इति क्रियापदमस्ति पश्यतु इदानीं वाक्यं वदतु भगिनि
पश्यामि महोदय जलं पातुं चषकः आवश्यकः
जलं पातुं चषकः आवश्यकः चषकेन विना जलं न पातुं शक्नुमः अस्तु अस्तु इदानीं इदानीं किं कुर्मः तत्र त्वारूपं त्वान्तरूपं कृतवन्तः इदानीं तुमुन् रूपम् इदानीं कुर्वन् स्मः किन्तु अग्रे यद् यः अभ्यासः अस्ति तस्य पूर्वं किञ्चित् अभ्यासः तुमुन् इति विषयस्य अभ्यासः कुर्मः इति चिन्तयित्वा तत्र कृष्ण फलके अत्र अहं किञ्चित् नियोजितवान् अस्मि सर्वे कृपया एतत् एतस्य वर्गस्य कृष्णफलकं पश्यतु तत्र द्वितीयपुटे सर्वे पश्यन्ति वा कृष्णफलकम् अस्तु तत्र गीताञ्जलि भगिनी भवती एव तत्र यत् द्वितीयपुटे यत् अस्ति तत् चित्रं यत् अस्ति तत् प्रथमचित्रं तस्य अधोभागे वाक्यमस्ति तत् पठतु भगिनि
वत्सः क्षीरं पातुम् इच्छति
पातुम् इति आगच्छति खलु तत्र पातुम् इति अस्ति अग्रे वेणुगोपाल महोदय
प्रश्न महोदय
इत्युक्ते काफ् इति काफ्
आल्सो फार् पीपल् वत्सः
तत्र चैल्ड् इति अर्थे अस्तु महोदय अग्रिम
महोदय क्षम्यतां मम पार्श्वे
सङ्गणकं नास्ति वा
नास्ति
अस्तु अस्तु
कृष्णफलकं
कृष्णफलकं लिङ्क् लिङ्क् इति नास्ति वा तत्
लिङ्क् अहमपि अपि ईमेल् पश्यामि
अस्तु 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 पश्यतु पश्यतु ईमेल् मध्ये तत् कृष्णफलकम् इति कोष्टके अहं लिङ्क् स्थापितवान् अस्मि पश्यतु मेहुल् मध्ये भवान् पश्यति वा तत्र कृष्णफलकं दृश्यते वा अस्तु द्वितीयवाक्यं पठतु महोदय तत्र
चोरः धावितुम् इच्छति
अत्र चोरः धावितुम्
इच्छति
धावति क्रियापदम् इदानीं धावितुम् इति रूपम् अस्तु नरेश महोदय अग्रिमं
बालकः दुग्धं दातुं गच्छति
हा तत्र क्रियापदं दधाति अस्ति इदानीं रूपं किं
दातुं
दातुम् इति भवति दातुं गच्छति समीचीनं महोदय वंशीसुधा भगिनी अग्रिमं करोति वा
आं महोदय छात्रः पठितुं विद्यालयं गच्छति
हा तत्र क्रियापदं किम् अस्ति
पठति
इदानीं रूपम् अस्ति
पठितुं
पठितुम् इति समीचीनम् अस्तु अग्रे प्रिया भगिनी अग्रिमं करोति वा
आं महोदय अहं नर्तितुं शक्नोमि
तत्र क्रियापदं किं भवति भगिनि तत्र यस्य तुमुन् रूपम् अस्ति अत्र हा नर्तयति इति वा नृत्यति नृत्यति इदानीं नर्तितुम् इति भवति भवति समीचीनं शोभा भगिनी अग्रिमम्
अहम् एतानि खादितुं शक्नोमि खादितुं पदस्य
क्रियापदमस्ति
क्रियापदमस्ति खादति
तुमुन् रूपम् अस्ति
खादितुं
क्रियापदं खादति तुमुन् रूपं खादितुम् इति अस्ति अस्तु अग्रे
महोदय गायति रूपं गायितुं
अग्रे आगच्छति भगिनि तत् किञ्चित् प्रतीक्षां करोतु रूपम् आगच्छति अस्तु भानुचैतन्य महोदय सङ्गणकम् अस्ति वा कृष्णफलकं पश्यति वा अस्तु तत्र अग्रिमपुटे यत् अभ्यासः 163 इति अस्ति
महोदय
तत्र उदाहरणम् अस्ति तद् एकवारं पठतु तत्र सः पठनम् इच्छति इति अस्ति
अरे महोदय पठितुं सः पठनम् इच्छति तत् कोष्टकं वा महोदय
तस्य उपरि केवलम् उदाहरणम्
मञ्जूषतः उचितं पदं योजयित्वा उदाहरणानुगुणं वाक्यानि पुनः लिखन्तु सः उदाहरणार्थं सः पठनम् इच्छति सः पठितुम् इच्छति सः गानम् इच्छति सः गातुम् इच्छति
अस्तु इदानीं तत्र तृतीयम् अपि करोतु महोदय तत्र
तत्र महोदय पठनं गानम् इति
तुमुन् रूपम् अस्ति कोष्टकम् अस्ति तद् उपयुज्य तृतीयवाक्यं तत्र करोतु महोदय
आं महोदय किन्तु मया संशयं तत्र सः पठनम् इच्छति तत्र कर्मरूपपदं वा पठनं
सत्यं सत्यं पठनम् इति गमनम् इति गच्छति इति कार्यमस्ति गच्छामः किन्तु गमनम् इति भवति क्रिया भवति अत्र कर्मपदं भवति तस्य गच्छति इति अस्ति गमनम् इति तस्य नामपदरूपं भवति गमनम्
न इच्छति इति अकर्मक वा महोदय
न इच्छति अकर्मक नास्ति महोदय
कम् इच्छति ओके
हा हा किं किम् इच्छति कम् इच्छति भवति खलु अस्ति इति अकर्मकक्रियापदमस्ति किन्तु इच्छति किम् इच्छति भवान् तत् कर्मपदमेव अस्ति तत्र सत्यं पठनम् इति रूपं तत्र कर्मपदं भवति पठनम् इति नपुंसकलिङ्गे नपुंसकलिङ्गशब्दः अस्ति किन्तु तत् तत्र द्वितीयाविभक्तिरूपं कर्मपदम् एव अस्ति किन्तु पठितुम् इति अव्ययपदं भवति
महोदय सः पठनम् इच्छति आङ्ग्लभाषा अनुवाद वदतु
वनचैतन्य महोदय वदति वा
आम् महोदय he likes to read he likes to study
तत्र पठनम् इच्छति he likes reading he likes reading अत्र he likes to read इति
so to read is to read is
इच्छति इत्युक्ते वाण्ट्स्
पठितुं टु रीड्
वाण्ट्स् 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 अपि भवति हि वाण्ट्स् टु रीड् धन्यवादः महोदय हि वाण्ट्स् रीडिङ्ग् हि वाण्ट्स् टु रीड् इति भवति तत्र
सः पठनम् इच्छति सः पठितुम् इच्छति किं भिन्ना
रूपं भिन्ना अस्ति रूपभेदः अस्ति
परन्तु
अर्थसमानमस्ति समानार्थक किन्तु तुमुन् रूपं तस्य अभ्यासः कर्तुम् इच्छामः तावदेव समानार्थकपदं वाक्यं सः पठनम् इच्छति सः पठितुम् इच्छति इति अस्तु भानुचैतन्य महोदय तृतीय अभ्यासः तत्र करोतु वा
सः लेखनम् इच्छति सः लिखितुं
न तत्र तत्र कोष्टकं पश्यतु तत्र अथवा मञ्जूषा पश्य
लेखितुम्
हा लेखितुम् इति रूपम् अस्ति अस्तु हा अग्रे रघुपतिमहोदय अग्रिमम्
ओके सः कथनम् इच्छति सः कथयितुम् इच्छति
हा समीचीनं प्रिया भगिनी अग्रे
सा गमनम् इच्छति सा मन्दिरं गन्तुम् इच्छति
हा समीचीनं समीचीनं भगिनि हा तत्र गन्तुम् इति रूपं यत्र अस्ति तत्र सा वा कर्तृपदं किमपि भवितुम् अर्हति सः सा अपि वचनमपि भेदः ते ताः किन्तु गन्तुम् एव भवति रूपपरिवर्तनं न भवति समीचीनं भगिनि हा समीचीनं शोभा भगिनी अग्रिमम्
आं महोदय सः पानम् इच्छति सः पातुम् इच्छति
हा समीचीनं हा वेणुगोपाल् महोदय इदानीं प्राप्तं वा
कृष्णफलं सः खादनम् इच्छति सः खादितुम् इच्छति
हा समीचीनं अस्तु नरेश महोदय अग्रिमं
सः दानम् इच्छति सः दातुम् इच्छति
हा समीचीनं महोदय वंशीसुधा भगिनी अग्रिमम् आम्
महोदय सः हसनम् इच्छति सः हसितुम् इच्छति
हा समीचीनं मेहुल् महोदय अग्रिमं
सः चलनम् इच्छति सः चलितुम् इच्छति
अस्तु गीताञ्जलि भगिनी अग्रिमं
सः क्रीडनम् इच्छति सः क्रीडितुम् इच्छति
हा समीचीनं हा अस्तु भानुचैतन्य महोदय अग्रिमम्
महोदय सः धावितुम् इच्छति.
हा समीचीनं. रघुपति आचार्य महोदय अग्रिमम्.
हा धावनं सः करणम् इच्छति. सः करणं करणं कर्तुम् इच्छति.
हा सः कर्तुम् इच्छति. हा पूर्वस्मिन् अभ्यासे अपि भवान् कर्तुमेव कृतवान्. अस्तु क्षम्यताम्. हा प्रिया भगिनी अग्रिमम्. वदतु महोदय. रघुपति महोदय
अत्र मया दृष्टम् अत्र किञ्चित् सटल् डिफरेन्स्. सः दानम् इच्छति. सः दानं कर्तुम् इच्छति, दातुम् इच्छति. अत्र सः दानम् इच्छति अत्र तस्य अर्थः सः दानं द्रष्टुम् इच्छति अपि भवति. हसनम् इच्छति, हस्तितुं.
सत्यं सत्यं. प्रथमवाक्यस्य सन्दर्भानुसारम् अन्य अर्थः अपि भवितुम् अर्हति. किन्तु एतत् अर्थः अपि अस्ति, अतः तस्य अन्यरूपम् अपि भवति.
पठितुम् अत्र कर्ता एव करोति.
आम् सत्यं 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 सत्यं. हा तदेव वक्तुम् इच्छामः. अन्य अर्थः अपि अस्ति. भवान् यत् उक्तवान् तत् सत्यमेव. किन्तु एषः अर्थः अपि अस्मिन् वाक्ये भवति. तद् एव तस्य तद् अर्थं स्वीकृत्य वयम् अन्यरूपं वक्तुम् इच्छामः. अस्तु प्रिया भगिनी अग्रे.
महोदय एकः सन्देहः अस्ति. पठनं अपि पठितुं. पठनम् इस् अध्ययन लैक् स्टडियिङ्ग् रीडिङ्ग् दट् अन्य अपि कर्तुं शक्नोति किल?
तदेव अत्र अस्ति भगिनि. लेखनं कथनं गमनम् इति.
ओके महोदय उक्तवान् दट्स् वै वास् हेविङ्ग् अ डौट् महोदय दट् कर्तृ इस् द ओन्ली वन् हू केन् डू देट्.
अत्र पश्यतु रघुपतिमहोदय यत् उक्तवान् यत् अहम् अवगतं तद् वदामि. तत्र सः दानम् इच्छति. तत्र किम् अर्थः कः?
The act of giving dana.
Okay. He likes to give or he likes donation iti tadapi bhavati khalo. Kintu anyakopi dadati chetapi saha tad icchati tadapi bhavati. Kintu atra kim svikurmaha saha kimapi dhatum icchati iti tadeva artaha vayam svikurmaha atra.
Astu mahodaya.
अतः रघुपतिमहोदय उक्तवान् सः एव कर्ता. अन्य कोऽपि एतत् कार्यं न करोति. यः प्रथमपद यः कर्तृपदम् अस्ति सः एव कार्यं करोति इति.
सः दानं इच्छति.
किं किं भगिनि?
सः सः दानं दातुम् इच्छति.
दानं दातुम् इच्छति अथवा दानं यथा भव अन्य कोऽपि दानं करोति चेत् तदपि द्रष्टुम् इच्छति. तदपि भवति खलु.
सो द सेकेण्ड् वन् इस् द कर्ता ओन्ली. ओके.
सः दानम् इच्छति इत्युक्ते इदानीं वयं किं चिन्तयामः? सः दातुम् इच्छति इति चिन्तयामः अत्र.
धन्यवादः महोदय.
प्रिया भगिनी
सः दर्शनम् इच्छति. सः द्रष्टुम् इच्छति.
सः द्रष्टुम् इच्छति. समीचीनं भगिनि. अस्तु शोभा भगिनी अग्रिमम्.
सः अर्चनम् इच्छति. सः अर्चितुम् इच्छति.
अर्चितुम् इच्छति. अस्तु इदानीं तत्र पञ्चदश क्रियापदानां तुमुन् रूपम् अत्र दत्तमस्ति. अस्तु अग्रे अपि तादृशः एव अभ्यासः भवति. तत्र अस्तु वंशी सुधा भगिनी तत्र पठति वा तत्र अग्रिमं
महोदय
गीताञ्जलि भगिनी वदतु
क्षम्यतां महोदय उभयोः रूपयोः संज्ञा तुमुन् अस्ति वा
उभयोः इति न प्रथमं तु कर्मपदम् अस्ति पठनम् इति अस्ति तुमुन् इत्युक्ते तुम् इति रूपं तत्र भवति इति पटि तुम् इति अतः तुमुन् इति वदामः
प्रथमं कर्मपदं द्वितीय तुमुन्
तुमुन् रूपं हा क्रियापदस्य तुमुन् रूपं
प्रथमं कर्मपदम्
कर्मपदमस्ति
धन्यवादः
अस्तु भगिनि अग्रे
कोष्टके प्रदत्तै धातुभिः सह तुमुन् प्रत्ययं संयोज्य यदोहरणं रिक्तस्थानानि यदोदाहरणं रिक्तस्थानानि पूरयन्तु वयं नर्तितुम् इच्छामः नृत् इति धातु सः खादितुम् इच्छति
समीचीनं भगिनि अस्तु धन्यवादः अस्तु मेहुल् महोदय अग्रिमम्
आम् महोदय सः सोरि ते गृहं गन्तुम् इच्छन्ति
अग्रिममपि करोतु तत्र
यूयं किं कर्तुम् इच्छत
इच्छत समीचीनं महोदय गीताञ्जलि भगिनी अग्रिमं करोति वा
रमा प्राङ्गणे क्रीडितुम् इच्छति
समीचीनं भगिनी अग्रिममपि करोति वा तत्र
देवेशः चलचित्रं द्रष्टुम् इच्छति
समीचीनं भगिनि अस्तु बालचित्रे महोदय अग्रे किं महोदय तत्र सप्तम सः आसने इति
आसने इच्छति सः आसने उपवेष्टुम् इच्छति
अग्रिमं
सः श्लोकम् इच्छति सः श्लोकं श्रोतुम् इच्छति
किन्तु तत्र श्रोतुम् इति नास्ति क्रियापदं
श्राव्य क्षम्यतां सः श्लोकं श्रावयितुम् इच्छति
समीचीनं महोदय धन्यवादः रघुपति महोदय अग्रिमद्वयं
महोदय एकविषयं सः गीतं गातुम् इच्छति सः वस्त्राणि प्रक्षालयितुम् इच्छति
समीचीनं महोदय प्रिया भगिनी अग्रिमद्वयं
सः समाचारं श्रोतुम् इच्छति सः परं ज्ञातुम् इच्छति
समीचीनम् अस्तु इदानीं शोभा भगिनी अत्र प्रथम अपि द्वितीयवाक्यं यत् अस्ति तत्र वयं सः इति अस्ति किन्तु तत्र अन्य कर्तृपदम् उपयोजयतु तत्र सः अथवा ते इति परिवर्तनं केवलं कर्तृपदं तस्य परिवर्तनं कृत्वा वदतु
उदाहरणम् अहं पठितुं विद्यालयं गच्छामि अहं पठनार्थं विद्यालयं गच्छामि सः शयनार्थं गच्छति सः शेते शेतुं
तत्र
शयितुं गच्छति
समीचीनं भगिनि अस्तु धन्यवादः अग्रे अधोभागे अस्ति
भगिनि
अस्तु अस्तु अग्रिमपि करोतु भगिनि तत्र
ते वन्दनार्थं गच्छति ते वन्दनार्थं गच्छन्ति ते वन्दितुं गच्छन्ति.
हा समीचीनं. हा वेणुगोपाल् महोदय अग्रिमं.
ताः मन्दिरं गच्छन्ति अर्चनार्थं मन्दिरं गच्छन्ति ताः अर्चितुं मन्दिरं गच्छन्ति.
हा समीचीनम् अस्तु अग्रिमं.
बिडालः बिडालः खादनार्थं भोजनालयं प्रविशति. बिडालः खादितुं भोजनालयं प्रविशति.
समीचीनं महोदय धन्यवादः.
बिडालः बिडालः पदस्य अर्थं किम् अस्ति महोदय?
अस्तु. हा नरेश महोदय अग्रे.
मूषकः कर्तनार्थम् आगच्छति. मूषकः कर्तयितुम् आगच्छति.
अग्रिमं.
कृषकः कर्षणार्थं क्षेत्रं गच्छति. कृषकः कष्टम् गच्छति.
क्षेत्रं गच्छति. समीचीनं महोदय. वंशीश्रुता भगिनी अग्रे.
आं महोदय. ते रक्षणार्थं द्वारे तिष्ठन्ति. ते रक्षितुं द्वारे तिष्ठन्ति.
रक्षितुं द्वारे तिष्ठन्ति. समीचीनम् अग्रिमं.
वयं स्मरणार्थं प्रातः उत्तिष्ठामः. वयं स्मर्तुं प्रातः उत्तिष्ठामः.
वयं स्मर्तुं प्रातः उत्तिष्ठामः. समीचीनं भगिनि. अग्रे मेहर् महोदय.
एते विश्वनाथमन्दिरं दर्शनार्थं काशीं गच्छन्ति. एते विश्वनाथमन्दिरं दर्शितुं काशीं गच्छन्ति.
दर्शनार्थम् इति अस्ति महोदय.
आम्
तत्र तत्र दर्श हा तत्र दर्श
दर्शनार्थं पश्यति इत्यस्य द्रष्टुमिति
सत्यं महोदय. हा तत्र दर्शनं इच्छन्ति. हा किमर्थम् इति किम् इच्छन्ति किं कर्तुम् इच्छन्ति इति. हा तत्र दर्शनार्थं गच्छन्ति इति. हा अतः द्रष्टुमेव अस्ति.
एते विश्वनाथमन्दिरं द्रष्टुं काशीं गच्छन्ति.
अग्रिमं महोदय.
अग्रिमं. सा पचनार्थं पाकशालां गच्छति. सा पचितुं पाकशालां गच्छति.
तत्र पचितुम् इति नास्ति खलु. तत्र अधोभागे रूपाणि दत्तानि सन्ति.
पक्तुं पक्तुं पाकशालां गच्छति
इति अस्ति. हा अग्रिममपि करोतु महोदय. तत्र
अस्तु. युवकः चायं पानार्थम् उपहारं गच्छति. युवकः चायं पातुम् उपहारगृहं गच्छति.
हा समीचीनं महोदय. अस्तु. हा अत्र अत्र किं वयं कृतवन्तः तुमुन् इति रूपस्य एकः नूतनप्रयोगः किमर्थं पठनार्थं शयनार्थम् इति. इदानीम् एतदेव वयं किञ्चित् अन्यरीत्या कुर्मः. तदनन्तरम् अभ्यासपुस्तके यदस्ति तद् कुर्मः. तत्र रघुपतिमहोदय. महोदय एतत् अत्र यत् यत् वयं कृतवन्तः तत्र एव प्रश्नमपि पृष्ट्वा उत्तरं ददातु. हा तत्र किमर्थं किमर्थम् इति
अहं किमर्थं विद्यालयं गच्छामि अहं पठनार्थम् पठितुं विद्यालयं गच्छामि
किन्तु तत्र पठनार्थम् इति प्रश्नरूपं भवति समीचीनं महोदय द्वितीयमपि तादृश एव करोतु
महोदय भवान् किमर्थम् इति प्रश्नः वाक्यं
तदपि भवति तदपि भवति किन्तु अहमपि कोऽपि पृच्छति भवान् किमर्थं तत्र गच्छति ओ अहं किमर्थं तत्र गच्छामि इति प्रश्नः वा अस्तु अहम् उत्तरं ददामि इति भवति खलु अतः रूपद्वयमपि साधु एव रघुपति महोदय अग्रिममपि करोतु
सः किमर्थं गच्छति सः शयनार्थं गच्छति सः शयितुं गच्छति
तत्र शयितुम् इति
शयितुम् एव
शयितुं गच्छति समीचीनं महोदय धन्यवादः गीताञ्जलि भगिनी अग्रिमद्वयं करोति वा तादृशः
अहं किमर्थं सङ्गीतपाठशालां गच्छामि अहं वाद्य अहं वाद्य
वादनम् इति प्रायशः
to play an instrument vadanam
kartum
iti padam samyak
vadanam kartum iti
vadanam kar aham vadanam kartum sangeeta paathshalam gachhami
समीचीनमेव अस्ति भगिनि अस्तु किन्तु यत् वाक्यम् अत्र दत्तमस्ति तद् उपयुज्य प्रश्नः पृच्छतु तृतीयवाक्यं तत्र ते वन्दनार्थं गच्छन्ति इति अस्ति खलु तत्र प्रश्नः पृच्छतु ते किमर्थं
ते किमर्थं
गच्छन्ति इदानीं तुमुन् रूपं तुमुन् रूपम् उपयुज्य ते
ते वन्दनितुं
वन्दितुं वन्दितुं
वन्दितुं गच्छन्ति
इदानीम् अग्रिममपि करोतु तादृशः एव ताः
ताः
किमर्थं
किमर्थं मन्दिरं गच्छन्ति ताः अर्चितुं मन्दिरं गच्छन्ति
समीचीनं भगिनि अस्तु हा बानचेतनी महोदय बिडालः इति
बिडालः पञ्चमवाक्यं महोदय
आम् आम्
बिडालः भोजनालयं प्रविशति बिडालः खादितुं भोजनालयं प्रविशति
किन्तु प्रश्नः प्रथमः प्रश्नः बिडालः किमर्थं
भोजनालयं प्रविशति
इति रूपम् उक्त्वा एतत् उत्तरं ददातु
महोदय क्षम्यतां बिडालः किमर्थं भोजनालयं प्रविशति बिडालः खादितुं भोजनालयं प्रविशति
हा समीचीनम् इदानीम् अग्रिममपि तादृशरूपं
मूषकः किमर्थम् आगच्छति मूषकः कर्तयितुम् आगच्छति
समीचीनं महोदय अस्तु हा प्रिया भगिनी अग्रिमद्वयम्
कृषकः किमर्थं क्षेत्रं गच्छति? कृषकः क्रष्टुं क्षेत्रं गच्छति. ते किमर्थं द्वारे तिष्ठन्ति? ते रक्षितुं द्वारे तिष्ठन्ति.
हा, समीचीनं भगिनि, धन्यवादः. शोभा भगिनि अग्रे.
आं महोदय, वयं किमर्थं प्रातः उत्तिष्ठामः? वयं स्मर्तुं प्रातः उत्तिष्ठामः. एते विश्वनाथमन्दिरं किमर्थं काशीं गच्छन्ति? एते विश्वनाथमन्दिरं द्रष्टुं काशीं गच्छन्ति.
तत्र प्रायशः तत्र किञ्चित् क्लेशः भवति भगिनि. एते किमर्थं काशीं गच्छन्ति इति प्रायशः प्रश्नः अस्ति. किन्तु
एते विश्वनाथमन्दिरं महोदय, एते किमर्थं काशीं गच्छन्ति? एते विश्वनाथमन्दिरं द्रष्टुं काशीं गच्छन्ति.
समीचीनम्. अन्ये वाक्ये तत्र एतादृशरूपं नासीत्, अतः तावदेव. समीचीनं. वेणुगोपाल् महोदय अग्रिमद्वयं.
सा किमर्थं पाकशालां गच्छति? सा पक्तुं पाकशालां गच्छति. युवकः चायं किमर्थम् उपहारगृहं गच्छति? युवकः चायं पातुम् उपहारगृहं गच्छति.
तत्र यथा शोभभगिन्याः वाक्यम् आसीत् तादृश अत्र अपि महोदय, युवकः प्रायशः प्रश्नः अस्ति, युवकः किमर्थम् उपहारगृहं,
युवकः किमर्थं छायागृहं,
न केवलम् उपहारगृहं गच्छति.
युवकः किमर्थम् उपहारगृहं गच्छति? युवकः चायं पातुम् उपहारगृहं गच्छति.
अत्र प्रश्ने किमर्थम् इति प्रश्नः अस्ति चेत् वयं न जानीमः सः चायपानं करोति, किमपि न जानीमः. अतः केवलं युवकः किमर्थम् उपहारगृहं गच्छति इति एव प्रश्नः भवति. समीचीनं वा
महोदय? एकः प्रश्नः अस्ति, षष्टमबिन्दु मूषकः कर्तनार्थम् इति पदं तुमुन् पदं लिखितवान् यः, कर्तयितुम् इति पदम् अस्ति महोदय. पूर्वतनकोष्टके कर्तुप्रदं कर्तुम् इति अस्ति, कर्तुं कर्तयितुं भेदः अस्ति महोदय?
तत्र कृ धातुः अस्ति, करोति इति भवति, तत्र करोति इति कर्तुम् इति भवति.
पूर्वतनकोष्टके किं बिन्दु क्रु इति धातु चत्वारः बिन्दु, यूयं किं कर्तुम् इच्छत इति लिखितम् अस्ति.
सत्यं भगिनि, तत्र क्रियापदं किम् अस्ति? क्रु धातु क्रियापदं किम् अस्ति? करोति इति अस्ति खलु. अत्र किम् अस्ति कर्तृपदं? किम् अस्ति कर्तनार्थम्? कर्तनार्थम् इति कर्तयति इति, करोति इति न,
कर्तयति.
अन्यत् क्रियापदम् अस्ति, तावदेव. अस्तु, इदानीं नरेश् महोदय, अत्र यत् उदाहरणानि सन्ति यत् वयम् इदानीं कृतवन्तः, तत्र किमपि भवान् एव स्वीकरोतु, किन्तु कर्तृपदं तस्य परिवर्तनं करोतु. यत्र सः अस्ति तत्र ते अथवा अहम् इति उपयुज्य किमपि वदतु महोदय. नरेश् महोदय,
ते किमर्थं गच्छन्ति? ते शयितुं गच्छन्ति.
हा समीचीनम्. अग्रिमम् अन्यत् अपि
अहं किमर्थं गच्छामि? अहं वन्दितुं गच्छामि.
समीचीनं महोदय. तत्र तुमुन् रूपं, तत्र कर्तृपदम् अन्यकर्तृपदं स्वीकुर्मः चेत् अपि तुमुन् रूपस्य परिवर्तनं न भवति. वचनं वा पुरुषः वा तत्र भेदः नास्ति. तुम् इति पठितुमेव भवति अथवा श्रोतुमेव भवति, श्रावितुमेव भवति. समीचीनं महोदय. वंशीसुधा भगिनी, तादृशः प्रयोगः भवती अपि करोतु अत्र.
सैनिकः किमर्थं गच्छति? सैनिकः रक्षितुं गच्छति.
अन्यत् वाक्यं तादृशं.
बालकः किमर्थं गच्छति? बालकः दुग्धं पातुं गच्छति.
समीचीनं भगिनि, धन्यवादः. मेहुल् महोदय,
ते द्वारे किमर्थं तिष्ठन्ति? ते रक्षितुं द्वारे तिष्ठन्ति. अहं किमर्थम् अत्र तिष्ठन्ति?
तिष्ठामि.
अहं रक्षितुम् अत्र तिष्ठामि.
समीचीनं महोदय. अन्यत् वाक्यं तादृशं.
वयं किमर्थं प्रातः उत्तिष्ठामः? वयं स्मर्तुं प्रातः उत्तिष्ठामः. वयम् अहं किमर्थं प्रातः उत्तिष्ठामि? अहं स्मर्तुं प्रातः उत्तिष्ठामि.
समीचीनं महोदय, धन्यवादः. इदानीं तुमुनितिरूपस्य अभ्यासः वयं बहु कृतवन्तः, इदानीं सर्वे जानन्ति इति मन्ये. तत्र तुमुनितिरूपस्य अत्र अधोभागे आसीत्, अतः सुलभः अभवत् इति मन्ये. इदानीं किं कुर्मः, अत्र अभ्यासपुस्तके अग्रिम अभ्यासः इदानीं कर्तुं शक्नुमः इति मन्ये. अत्र अस्तु, मेहुल् महोदय पठति वा? इदानीं कृष्णफलकं पर्याप्तम्, अत्र अभ्यासपुस्तकं गच्छामः. 31.2 इति महोदय, मेहुल् महोदय,
महोदय, द्वे करपत्रे किञ्चित् PDF रूपेण प्रेषयतु महोदय.
PDF रूपेण वा?
किञ्चित् अहं न सेव् न करोमि, कृतवती.
अस्तु अस्तु, किन्तु एतत् लिङ्क् तु तिष्ठति एव भगिनि. अत्र अहं केवलं नूतनं नियोजयामि, किन्तु पुरातनम् अधो गच्छति चेत् पुरातनं सर्वे अस्ति.
आम् आम्, धन्यवादः. इदानीमेव धन्यवादः.
अस्तु, अतः अहम् एतत् चिन्तयित्वा एव एतत् कृतवान् अस्मि. पुरातनं यत् कोऽपि छात्रः द्रष्टुम् इच्छति चेत् अत्र एव अस्ति, कृष्णफलके एव अस्ति इति.
मोबैल् मध्ये, मोबैल् मध्ये यु केन् सेव् इट् बै प्रेसिङ्ग् सेव्
न कृतवती.
अस्तु, किन्तु इमेज् इति अस्ति भगिनि, सेव् कर्तुं न करोति अपि चिन्ता मास्तु, अत्र एव भवति, केवलम् अधो गमनीयम् अस्ति.
एतत् कृष्णफलं तु सर्वे अपि अस्ति, कृष्णफलं न.
अस्तु,
धन्यवादः महोदय, धन्यवादः.
अस्तु अस्तु, मेहुल् महोदय तत्र इदानीम् अभ्यासपुस्तकं.
परिवर्तनाभ्यासः, स्वातः तुमुन्. एकम् उदाहरणमस्ति, कपिलः ग्रन्थालयं गत्वा ग्रन्थं पठति. कपिलः ग्रन्थं पठितुं ग्रन्थालयं गच्छति. अत्र पठति इति क्रियापदस्य पठितुम् इति भवति, अनन्तरं गत्वा इति पदस्य गच्छति इति क्रियापदं परिवर्तनं.
सत्यं सत्यं महोदय. तत्र त्वान्तरूपं यदस्ति तस्य तुमुन् रूपं वक्तुं शक्नुमः. इदानीं प्रथमं करोतु महोदय तत्र.
अस्तु, एतेन क्रमेण अन्यानि वाक्यानि परिवर्तयतु. प्रथमं, गौरी सखीगृहं गत्वा पुस्तकम् आनयति. गौरी पुस्तकम् आनयितुं सखीगृहम्
आनेतुं
आनेतुं सखीगृहं गच्छति.
हा समीचीनं महोदय, अस्तु धन्यवादः। हा अस्तु नरेश महोदय अग्रिमं करोति वा तत्र?
चित्रकारः चित्रं लिखित्वा धनं सम्पादयति। सम्पादयितुं चित्रं लिखति।
हा लिखति, लिखति समीचीनं।
बालिका
हा अस्तु अस्तु धन्यवादः महोदय, अग्रे अन्य कोऽपि करोतु। हा अस्तु वेणुगोपाल् महोदय अग्रिमं करोति वा?
बालिका सम्यक् पठित्वा उत्तीर्ण भवति। उत्तीर्णं भवितुं बालिका सम्यक् पठति।
समीचीनं महोदय, धन्यवादः। शोभा भगिनी अग्रिमम्।
आम् महोदय, एषः स्नानं कृत्वा शुद्धः भवति। एषः शुद्धं भवितुं
शुद्धः भवितुं
स्नानं करोति।
स्नानं करोति, समीचीनं भगिनि। अस्तु वंशीसुधा भगिनी अग्रिमम्।
सम्यक् विचारं कृत्वा कार्यं करोतु। सम्यक् कार्यं कर्तुं विचारं करोतु।
हा समीचीनम् अस्तु। हा समीचीनं भगिनि अस्तु।
परन्तु अर्थः भेदः अस्ति न महोदय, सम्यक् विचारं कृत्वा कार्यं करोतु, सम्यक् कार्यं कर्तुं विचारं करोतु। आम् आम् आम्
अस्तु। शोभा भगिनी कृतवती, प्रिया भगिनी अग्रिमं करोति वा?
आम् महोदय, सा पत्रालयं गत्वा पत्रं प्रेषयति। पत्रं प्रेषयितुं सा पत्रालयं गच्छति।
हा समीचीनं भगिनि। हा रघुपति महोदय अग्रिमम्।
हा उषा लोकयानस्थानकं गत्वा सख्याः स्वागतं करोति। उषा किमर्थं गच्छति? ओके, उषा सख्याः स्वागतं कर्तुं लोकस्थानकं गच्छति। लोकयानस्थानकं गच्छति।
हा समीचीनं महोदय। हा तत्र भवान् यथा चिन्तितवान् तदपि समीचीनम् अस्ति। किमर्थम् इति चिन्तयामः चेत् रूपपरिवर्तनं कथं करणीयम् इति सुलभं भवति। समीचीनं महोदय। हा बालचेतनी महोदय अग्रिमम्। बालचेतनी महोदय अस्ति वा? अस्तु गीतांजलि भगिनी अग्रिमं करोति वा?
महाभारतं पठित्वा अहम् महाभारतं कथा।
तत्र किं भवति भगिनि, तत्र उदाहरणं पश्यतु। गत्वा इति अस्ति, तत् गच्छति इति भवति, अतः अत्र किम् अस्ति, पठित्वा इति अस्ति।
ज्ञातुं
हा
महाभारतम् अनेकाः कथाः ज्ञातुम्
अहं
पठन्ति।
किन्तु अहम् इति अस्ति अतः हा इदानीम् समीचीनं भगिनि, इदानीं पूर्णं वाक्यं वदतु।
महाभारतं अनेकाः
न महाभारतम् इदानीं मास्तु, अनेकाः इति आरम्भं करोतु।
अनेकाः कथाः ज्ञातुम् अहं महाभारतं पठामि।
हा इदानीं सुलभं भवति, अवगमनं सुलभं भवति। अनेकाः कथाः ज्ञातुम् अहं महाभारतं पठामि. समीचीनं भगिनि. अस्तु, तत्र भानुचतुर्णी महोदय नास्ति इति मन्ये. मेहुल् महोदय, भवान् एव? अस्तु अस्तु, भानुचतुर्णी महोदय तत्र अभ्यासपुस्तके अग्रिमं करोति वा? तत्र
नवम
सत्यं.
भवान् काश्मीरं गत्वा विहारं करोति. अहं
भवानेव अस्ति तत्र. त्वान्तरूपं तुमुन् करणीयमस्ति. उदाहरणं तत् पश्यतु तत्र.
आं महोदय, अहं
भवान् इति अस्ति. भानुचेतनि महोदय, भानुचेतनि महोदय श्रूयते वा? अस्तु, भानुचेतनि महोदय श्रूयते वा? अस्तु, मेहुल् महोदय तत् करोति वा? नवमः.
भवान् काश्मीरं गत्वा विहारं करोतु. भवान् विहारं कृत्वा काश्मीरं गच्छति.
किन्तु तुमुन् प्रथमम् अस्ति महोदय. गत्वा इति अस्ति, त्वान्तरूपम् इदानीं मास्तु, तुमुन् रूपम् आवश्यकं खलु?
ओ ओ ओ, भवान् भवान् काश्मीरं
न भवान् एव एतत् पठितवान् खलु उदाहरणं. गच्छति. समीचीनं महोदय. इदानीं वाक्यं पुनरेकवारं वदतु.
भवान् विहारं कर्तुं काश्मीरं गच्छति.
गच्छति, समीचीनं महोदय. अस्तु, नरेश महोदय अन्तिमं करोति वा? तत्र
सः लेखं लिखित्वा पत्रिकासु प्रकाशयति. पत्रकासु प्रकाशयितुं सः लेखं लिखति.
सः पत्रिकासु प्रकाशयितुं लेखं लिखति. समीचीनं महोदय. अस्तु, तत्र त्वान्तरूपम् अस्ति, तस्य तुमुन् रूपम् इति परिवर्तनं कर्तुं शक्नुमः इति, तदेव अभ्यासः अस्ति. अस्तु, इदानीं समयः जातः. अग्रिमवर्गे मिलामः. किन्तु तुमुन् रूपस्य अभ्यासं बहु अभ्यासं कृतवन्तः अद्य. समीचीनम् अस्ति. अस्तु, सर्वेभ्यो नमस्कारः, धन्यवादः. अग्रिमवर्गे
धन्यवादः महोदय.
धन्यवादः महोदय. क्षम्यतां.
चिन्ता मास्तु महोदय, चिन्ता मास्तु.
इण्टर्नेट् माध्यमे अहं.
अस्तु, चिन्ता मास्तु महोदय. किन्तु श्रुतवान् खलु?
आं महोदय.
अस्तु अस्तु, धन्यवादः. रेकार्डिङ्ग् इदानीं